प्रथमः स्कन्धः अथैकोनविंशोऽध्यायः परीक्षित महाराज का अनशन व्रत और श्री सुखदेव जी का आगमन। श्री सुत उवाच महीपतिस्त्वत्तत्कर्म गर्यम् विचिन्तयन् आत्मकृतम् सुदुर्मनः अहो मया नीच मनार्जवत्कृतम् निरागसि ब्रह्मणि गूढ तेजसि ध्रुवम् ततो मे कृतदेव हेलना दुरत्ययम् व्यसनम् नाति दीर्घात् तदस्तु कामम् त्वघ् निष्कृताय मे जथा न कुर्याम् पुनरेव मद्धा अद्यैव राज्यम् बलमृद्धकोशम् प्रकोपित ब्रह्मकुलानल अद्यैव राज्यम् बलमृद्धकोशम् प्रकोपित ब्रह्मकुलानलो मे दहत्वभद्रस पुनर्न मे भूत् पापीयशीर्धिर्द्विजदेव गोभ्यः स चिन्तयन् नित्थमथा शृणोद्यथा मुने सुतोक्तो निर्वृतिस्तक्षकाख्यः स साधु मेने न चिरेण तक्षकानलम् प्रसक्तस्य विरक्तिकारणम् अथो विहाय मम च लोकम् विमर्शितौ हेयतया पुरस्तात् कृष्णाङ्घ्रिसेवामधिमन्यमान उपाविशत् प्राय ममर्त नद्याम् या वै लसत् श्रीतुलसी विमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री पुनाति लोकान्भयत्र शेषान् कस्ताम् न सेवेत मरिष्यमाणः इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशम् प्रति विष्णुपद्याम् दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः तत्रोपजग्मुर्भुवनम् पुनाना महानुभावा मुनयः सशिष्यः प्रायेण तीर्थाभिगमापदेशैः स्वयम् हि तीर्थानि पुनन्ति सन्तः अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च परा सरोगाधिसुतोऽथ राम उतथ इन्द्र प्रमदेद्मबाहौ मेधातिथिर्देवल आष्टिषेणो भारद्वाजो गौतमः पिप्पलादः मैत्रेय और्वः कवशः कुम्भजोनि द्वैपायनो भगवान् नारदश्च अन्ये च देवर्षि ब्रह्मर्षिवर्जा राजर्षिवर्जा अरुणादयश्च नार्सेय प्रवरान् समेतान् नभ्यर्च राजा शिरसावन्दे सुखोपविष्टे स्वस्थतेषु भूयः कृतप्रणामः स्वचिकीर्षितम् यत् विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽभिगृहीतपाणिः राजोवाच अहो वयम् धन्यतमा नृपाणाम् महत्तमानुग्रहणीयशीलः राज्ञाम् कुलम् ब्राह्मणपादशौचात् दूराद्विशिष्टम् बत गर्ह्यकर्म तस्यैव मेघस्य परावरेषु व्यासक्तचित्तश्च गृहेष्वभिक्षणम् निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयमाशु धत्ते तम् मोपयातम् प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तमीशे द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलम् गायत विष्णुगाथः पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु महत्सु यां यामुपयामि सृष्टिम् मैत्रेस्तु सर्वत्र नमो द्विजेभ्यः। इति स्म राजाध्यवसायुक्तः प्राचीनमूलेषु कुशेषु धीरः उदङ्मुखो दक्षिणकूलयास्ते समुद्रपत्न्या स्वसुतन्यस्तभारः एवम् च तस्मिन्नरदेव देवे प्रायोपविष्टे दिविदेव सङ्घः प्रशस्य भूमौ व्यकिरन् प्रसूनैर्मुदा मुहुर्दुन्दुभयश्च नेदुः महर्षयो वै समुपागता ये प्रशस्य साधृत्यनुमोदमानः ऊचु प्रजानुग्रहशीलसारा जदुत्तमश्लोकगुणाभिरूपम् न वा इदम् राजशिवर्जचित्रम् भवत्सु कृष्णम् समनुव्रतेषु युध्यासनम् राजकिरीटजुष्टम् सद्यो जहुर्भगवत्पार्श्वकामः सर्वे वयम् तावदिहास्महेद्य कलेवरम् जावदसौ विहाय लोकम् परम् विरजस्कम् विशोकम् जास्यत्ययम् भागवत प्रधानः। आश्रित्य तदृशिगण वचः परीक्षित समम मधुचित गुरुचाव्यलीकम आभास तैनान अभिनंदक युक्तान सुसुर समाणश्चरितानि विष्णुः समागतः सर्वतेव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे नेहाथवा मूत्र च कंचनार्थम रीते परानुग्रहमात्मशीलम् ततश्च वह पृच्छमिमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायां सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृषताभियुक्तः तत्र भवद् भगवान् व्यासपुत्रो यदृच्छया गामट्मानोऽनपेक्षः अलक्षलिङ्गो निजलाभतुष्टो व्रतश्च बालैरवधूतवेषः तं द्वैष्टवर्षं सुकुमारपाद करोरुबहवंशकपोलगात्रम् चार्वायताक्षो नसतुल्यकर्ण शुभ्रननम कम्ब सुजात कंठम निगूढ़जत्रुं प्रतितुंग वक्षसं आवर्तनाभिं बलिबलगुदरं च दिगंबरं वक्ल विकीर्ण केशं प्रलंब बाहुं समरोत्तमाभं श्यामं सदा पिच्च बयोंग लक्ष्म्या स्त्रीणा मनोज्ञं रुचिरस्मितेना प्रत्युत्थतास्ते मुनयः श्वासनेभ्यस्तल्लक्षणज्ञा अपिगूढवर्चसम् स्वविष्णुरातोतिथय आगताय तस्मै सपर्यां शिरसा जहार ततो निवृत्ता यबुधः स्त्रियोर्भकः महासनेशोपविवेशपूजितः ससंवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षि देवर्षिसङ्घैः व्यरोचतालं भगवान् जथेन्दुर्ग्रहक्षतारा निकरैः परीतः प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभिपेत्य प्रणम्य मूर्ध्ना वहितः कृताञ्जलिर्नत्वा गिरासु नृत्यान्वपृच्छत् परीक्षिद्वाच अहो अद्य वयं ब्रह्मन् सत्सेभ्यः क्षत्रबन्धवः कृपया तिथिरूपेण भवद्भिस्तीर्थकः कृतः येषाम् संस्मरणात् पुंसाम् सद्यः शुध्यन्ति वै गृहः किम् पुनर्दर्शनस्पर्शपादशौचासनादिभिः सान्निध्यात् ते महाजोगीन् पातकानि महान्त्यपि सद्यो नश्यन्ति वै पुंसाम् विष्णोरिव सुरेतरः अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः पैतृसुसेयप्रीत्यर्थम् तद्गोत्रस्यात् बान्धवः अन्यथा ते व्यक्तिगतेर्दर्शनम् न कथम् नृणाम् नितराम् म्रियमाणानाम् संसिद्धस्य बनीयसः अतः पृच्छामि संसिद्धिम् योगिनाम् परमम् गुरुम् पुरुषस्येह यत्कार्यम् म्रियमाणस्य सर्वथा यच्छ्रोतव्यमथो जप्यम् यत्कर्तव्यम् नृभिः प्रभो स्मर्तव्यम् भजनीयम् वा ब्रूहि जद्वा विपर्ययम् नूनम् भगवतो ब्रह्मन् गृहे सुगृहमेधिनाम् न लक्ष्यते ह्यवस्थानमपि गोदोहनम् क्वचित् तौवाच एवमाभासितः पृष्टः स राज्ञा सुलक्षणया गिरा प्रत्यभासत धर्मज्ञो भगवान् बादरायणिः इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसहस्र्याम् पारमहंस्याम् संहितायाम् प्रथमस्कन्धे सुखागमनम् नामैकोनविंशोऽध्यायः इति प्रथमः स्कन्धः समाप्तः। हरे कृष्ण 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 हरे हरे, हरे राम 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 हरे हरे।